सर्वेभ्यः नमस्काराः. अद्य सिद्धान्तकौमुद्याः हल्सन्धिप्रकरणे तुगागमप्रकरणम् अधीयते. येनाक्षरसमाम्नायमधिगम्य महेश्वरान् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. किञ्चिदिव पुनरावर्तनं कुर्मः. लेट्स् गो बेक् थ्रू वाट् वि डिड् इन् द हल्सन्धि प्रकरण. एक्चुलि इनिशियलि वि स्टडीड् द आदेशस् स्टार्टिङ्ग् विच् चुक्त्वा श्रुत्वा जष्त्वा अनुनासिका अनुस्वार पूर्वसवर्ण परसवर्ण एक्सेट्रा. देन् वि स्टार्टेड् वित् द आगमस् which included cook, took, took, etc. After that was the rutva prakarana. Rutva prakarane kena kanichana sutrani santi hi rutvam arthat rephadeshah vidhiyate. Rutva prakarane anunasikah anuswarascha bhavatah ityapi visheshah adhitah. Rutva prakarane prathamam sutram asite samasuti samiti upasargasya suti pare rutvam bhavati iti sam कर्ता संस्कर्ता इत्युदाहरणं. ततः पुमः खय्यं परे पुंशब्दस्य अम्परे खै ऋत्वं स्यात् पुंस्कोकिलः अथवा पुंस्पुत्रः इत्यादिषु अस्य सूत्रस्य प्रवृत्तिः दृष्टा. नश्चव्यप्रशान् अम्परे छवि नकारान्तस्य ऋत्वं भवति इति सूत्रार्थः. चक्रिं स्त्रायस्व चक्रिन् त्रायस्व इति स्थिते नकारस्य ऋत्वे ततः पूर्वम् अनुस्वार अनुनासिके अथवा अनुस्वारागमे चक्रिंस्त्रायस्व चक्रिंस्त्रायस्व इत्युदाहरणानि. ततः नृन् पे नृन् इति शब्दस्य नृ इति ऋकारान्तस्य प्रातिपदिकस्य द्वितीया विभक्तौ बहुवचने नृन् इति रूपं तस्य पकारे परे ऋत्वं भवति. ऋत्वे कृते तस्य विसर्गे विसर्गस्य जिह्वामूलीये अथवा क्षम्यताम् उपध्मानीये नृन् पाहि जिह्वामू उपध्मानीयस्य अभावे विसर्गे कृते नृह् पाहि ऋत्वस्य अस्य ऋत्वस्य वैकल्पिकत्वात् ऋत्वाभावे नृन् पाहि इति पञ्चरूपाणि सिद्धानि. ततः कान् आम्रेडिते कान् इति किं शब्दस्य पुल्लिङ्गे द्वितीयाविभक्तौ बहुवचने कान् इति रूपं तस्य आम्रेडिते परे तस्य परम् आम्रेडितम् इति आम्रेडितसंज्ञा. द्वित्वे कृते तस्य परं शब्दस्य रूपम् आम्रेडितसंज्ञं भवति इति. तस्मिन् परे पूर्वस्य शब्दस्य ऋत्वं भवति. ऋत्वे कृते सत्त्वमपि क्रियते. ततः कान्स्कान् काम्स्कान् इति उदाहरणं. रैट्. सो एनी डौट्स् इन् दीस् what we covered the Rutva Sutras. No? Okay, I think we left a bit of Upostha Kocha in last class. We studied the sutra actually, but there was one line in the Kaumudi Pankti which requires a bit of explanation. सो कुप्वोः कः पौच विसर्गस्य विसर्जनीयस्य कुप्वोः परयोः जिह्वामूलीय उपध्मानीयो भवतः इति सूत्रार्थः. कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमात् जिह्वामूलीयः उपध्मानीयश्च भवति. च इति उक्तत्वात् विसर्गोऽपि भवति. विसर्गसहितं रूपमेकं जिह्वामूलीय अथवा उपध्मानीयसहितं रूपम् अपरम् इति रूपद्वयं सिद्ध्यति अनेनैव सूत्रेण. तत्र दीक्षितैः उच्यते येन नाप्राप्तन्यायेन विसर्जनीयस्य सः इत्यस्य अपवादः अयं न तु शर्परे मिस्टेक् शर्परे विसर्जनीयः इत्यस्य. देर् आर् अ फ्यू सूत्रास् विच् विल् लुक् एट् इट् इन् द अष्टाध्यायी कर्म. आदौ अस्ति विसर्जनीयस्य सः अष्टमाध्यायस्य तृतीयपादस्य चतुस्त्रिंशत्तमं सूत्रम्. कः अर्थः? खरि परे विसर्जनीयस्य सकारादेशः स्यात् इत्यर्थः. वेनेवर् अ विसर्ग इस् फालोड् बै ए खर् वर्ण
The visarga is replaced by sakara.
The next sutra is udaharana is ramaha trayate ityasti chet ramas trayate ityartha. Takaraha kharvarnaha kharvarne pare visarjaniyasya sakara deshe ramas trayate iti udaharana. Agrimam sutram bhavati sharpare visarjaniyaha. The next sutra tells sharpare khari visarjaniyasya visarjaniya eva syat.
This sutra will come later in the Kaumudi actually. It is in the Visarga Sandhi Prakarana. It will explain, it means that the previous sutra tells khari pare. If followed by khar, the visarga is replaced by sakara. But sharpare khari, if that khar varna is in turn followed by a shar varna, sharpare khari visarjaniyasya visarjaniya eva syat. Arthad sattvam na bhavati. This is an exception to visarjaniyasya saha. If the khar is followed by shar, there is no sakara desha. The visarga is replaced by another visarga. That is, the visarga remains. For example, kaha saruhu ityasti. Kaha ityatra visargaha. Agre takaraha sharvarnaha. Kharvarnaha. Tatah paratvena yaha sakaraha saha sharvarnaha. Sharpare khari. When followed by a kharvarna, which in turn is followed by a sharvarna, the visarga is replaced by visarga. Visarjaniyasya visarjaniya eva syat. So there is no sakara. The next sutra is va shari. Shari pare visarjaniyasya visarjaniya eva syat va. This told khari pare. The khar, in that khar, a subset is shar. It is kha pha cha tha tha cha ta ta ka pa. Shari pare, if an visarga is followed by sharvarna, it is optionally replaced by another visarga. Since this is optional, in its absence, we get sakara desha. So there are two forms. One is ramaha shete iti sthite, shakare pare, va shari ityanena visargasya visarga eva bhavati chet, ramaha shete, athava va vaikalpikatvat tadabhave sakara deshe ramas shete shtutve ramas shete iti bhavati. So va shari, so what is the deal so far? If it is a kharvarna following visarga, then it is sakara. But if it is a sharvarna, it is an optional visarga. So if it is the first or second letter of the varga which is following the visarga, there is sakara desha. If it is shashasa, there is an optional visarga and an optional sakara. If there is a kharvarna, the first or second letter is followed by another sharvarna, then there is no sakara. It remains as visarga. Visargasya sthane visarga eva bhavati. Agrimam sutram bhavati upoh kahpocha. Kavarge pavarge cha pare visarjaniyasya jishvamuliya upadhmaniyav bhavataha visargascha. If followed by kavarga or pavarga, the visarga is replaced by jishvamuliya and upadhmaniya respectively, and also there is a visarga desha. If you have ramaha kaha, one form is with jishvamuliya, which is ramaha kaha ityaparam rupam. Clear so far? Chattvari sutrani santi ashtadhyayi krameneiva visarjaniyasya saha ityanena khari pare visargasya sakara desha vidhiyate. Sharpare visarjaniyaha ityanena sharpare khari visarjaniyasya visarjaniya eva vidhiyate. Vashari ityanena sharipare visargasya sthane vikalpena visargaha vidhiyate. Kupoh kahpocha ityanena kavarga pavargayohu parayohu visargasya sthane jihvamuliya upadhmaniyo vidhiyate. So actually, when we are learning sutras, we go back from the exception. So we leave out the exceptions and then understand the general sutra. So what is the conclusion from this? If the visarga is followed by either kavarga or pavarga, there is jihvamuliya and upadhmaniya. If the visarga is followed by sharvarna, then there is an optional visarga and optional shatva. If the visarga is followed by a kharvarna, which is followed by shar, then there is an there is no sattva, there is visarga. What is remaining is the first two letters of tavarga, chavarga and tavarga, right? Because kavarga and pavarga are covered in kupoh kahpocha. So cha cha ta tha ta tha
इत्येतेषु परेषु विसर्गस्य स्थाने सकारादेशः भवति इति निर्णयः. द क्वश्चन् इस् वाट् हेपन्स् वेन् वासः क्षौमम् इत्यस्ति, किं भवति अत्र इति प्रश्नः. वासः क् अग्रे ककारः अस्ति, ककारः खर्वर्णः, तेन खरिपरे विसर्जनीयस्य सकारः स्यात् इति विसर्जनीयस्य सः इत्यनेन सत्त्वं प्राप्नोति. ककारादग्रे षकारः वर्तते, मूर्धन्यषकारः, सः शर्वर्णः. शर्परे विसर्जनीयः इत्यनेन विसर्गस्य स्थाने विसर्ग एव प्राप्नोति. किञ्च कुप्पोः कः पौच इत्यनेन ककारे परे विसर्गस्य स्थाने जिह्वामूलीयः प्राप्नोति. सो वी हेव् एन् आप्शन् एस् इन् द कण्डीशन्स् आर् साटिस्फैड् फार् अप्लैङ्ग् आल् त्री रूल्स्. सो विच् वन् शुड् बि अप्लै? आल् त्री रूल्स् केन् अप्लै. विसर्जनीयस्य सः अप्लैस् बिकास् देर् इस् अ खर् वर्ण विच् इस् ककार. शर्परे विसर्जनीयः अप्लैस् बिकास् देर् इस् अ खर् वर्ण विच् इस् फालोड् बै ए शर्वर्ण. कुप्पोः कः पौच केन् अप्लै बिकास् देर् इस् अ कवर्ग विट् इस् ककार. सो विच् आफ् दीस् शुड् अप्लै इस् द क्वश्चन्. किं क्रियते अत्र? उत्सर्गापवादभावः अस्ति वा? सो वी हेव् टु सी इस् देर् एन् एक्सेप्शन्, इस् वन् आफ़् दीस् सूत्रास् एन् एक्सेप्शन् टु द अदर्, इस् आर् क्वश्चन्. सो कुप्पोः कः पौच, इस् इट् एन् एक्सेप्शन् टु ओन्ली विसर्जनीयस्य सः आर् आल्सो टु शर्परे विसर्जनीयः? How do we decide exception? There is one paribhasha which we have studied earlier. Yena na prapte yo vidhir arabhyate satasya badhako bhavati. Yena na aprapte, arthat avashya prapte yo vidhir arabhyate satasya badhako bhavati. For example, this means that an exception, the conditions, if the conditions for an exception are a subset of the condition for a general sutra, then it would be called an exception. Which means that wherever we have an option of applying the exception, that is the sutra number 2, if sutra number 1 can also apply, then 2 would be an exception to 1. For example, achipare sarvatra adgunaha iti gunaha prapnoti. Adgunaha tells avarnat achipare guno bhavati. When akara is followed by any ach, there is guna. वृद्धिरेचि इति सूत्रम् आरभ्यते, अवर्णात् एचि परे वृद्धिः भवति. यत्र यत्र वृद्धेः प्राप्तिः अस्ति अर्थात् एचि परे, तत्र सर्वत्र एचः अपि अच्त्वात् गुणोऽपि प्राप्नोति. वेर् एवर् वि ट्रै टु अप्लै वृद्धि, सिन्स् एच् इस् अ सब्सेट् आफ् अच्, गुणा केन् आल्सो अप्लै. दिस् इस् वाट् वि मीन् बै येन न अप्राप्ते, अर्थात् गुणे न अप्राप्ते, गुणे अवश्यं प्राप्ते. Wherever we have vriddhi, guna will definitely have to apply. Right? So, gunasya avashya praptau vriddhi reti iti vriddhihi arabhyate. Tasmat vriddhihi gunasya badhika. Therefore, we say vriddhi is an exception to guna. Similarly, when we come to this particular case, khari pare, wherever there is a khar varna, visarjaniyasya saha ityanena sattvam bhavati. That is a general sutra. Wherever there is any khar varna, we get sakaradesha using visarjaniyasya saha. But if that khar happens to be either ka kha or pa pha, kavarge pavarge cha pare jihvamuliyah upadmaniyascha prapnoti. Wherever we have kavarga or pavarga, that is ka kha or pa pha, since they are also included in khar, that is ku and pu are here subsets of khar. So everywhere we have an, wherever we have an option for kuppoh kah paucha, visarjaniyasya saha can also apply. So visarjaniyasya saha iti sattvasya avashya praptau jihvamuliyaha athva upadmaniyaha arabhyate. Tasmat jihvamuliyaha sattvasya badhakaha. The kuppoh kah paucha is an exception to visarjaniyasya saha. So one thing clear, that in the previous thing we had an option for three sutras applying, visarjaniyasya saha, sharpare visarjaniyasya and kuppoh kah paucha. Since kuppoh kah paucha is an exception to visarjaniyasya saha, visarjaniyasya saha cannot apply. But what about sharpare visarjaniyaha and kuppoh kah paucha? Is one of them an exception to the other? That's the question. That is kuppoh kah paucha an exception to sharpare visarjaniyaha? It is not. Why? उपोः परयोः सर्वत्र शर्परे विसर्जनीयः इत्यस्य प्राप्तिः नास्ति. द सेट्स् that is the nimitta for sharpare visarjaniyaha is different than the nimitta for kuppoh kahpoucha. They overlap only in some cases. It is not inclusive of the other. For example, kahat saruhu ityasti. Atra jihvamuliyasya praptihi nasti. We cannot apply jihvamuliya here because there is no kavarga or pavarga. In ramah kaha, sharpare visarjaniyaha cannot apply because there is no sharvarna following the kharvarna. Right? We can show independent examples of each other where the other does not apply. We can show an example where only sharpare visarjaniyaha applies, and we can show an example where only kuppoh kahpoucha applies. This is not the case with either adgunaha and vriddhirechi or visarjaniyasya saha and kuppoh kahpoucha. Wherever we try to apply vriddhirechi, guna can also apply. Wherever we try to apply kuppoh kahpoucha, visarjaniyasya saha can also apply. Therefore, there is an exception, utsarga apavada bhava there. Here, that is not the case. So, anayohu vadhyabadhaka bhavaha nasti. We cannot say that kuppoh kahpoucha is an exception to sharpare visarjaniyaha. Therefore, when we try to decide what should apply, should we apply sharpare visarjaniyaha or should we apply kuppoh kahpoucha, त्रिपाद्यां सत्वात् पूर्वत्रासिद्धमित्यनेन शर्परे विसर्जनीयः इति सूत्रं प्रति जिह्वामूलीय उपध्मानीययोः असिद्धत्वात् शर्परे विसर्जनीयः इत्येव भवति. इन् सच् केस् वि आर् डील् कन्सर्न्ड् अबौट् वासः क्षौमम्. देर् इफ् वि लुक् एट् द नम्बर्स् अगेन्, शर्परे विसर्जनीयः इति 35 एण्ड् कुप्पोः कपोज इस् 37. Since there is no badhyabadhaka bhava, sharpare visarjaniyaha does not know that kuppoh kahpoucha exists. Therefore, we have to apply sharpare visarjaniyaha. Vasaha kshaumam ityatra visarga eva bhavati natu jihvamuliyaha. Yena napraptanyayena visarjaniyasya saha ityasya apavadaha ayam. Ayam ityukte kuppoh kahpoucha iti sutram visarjaniyasya saha ityasya apavadaha natu sharpare visarjaniyaha ityasya. तेन वासः क्षौमम् इत्यादौ विसर्ग एव. देर्फोर् इन् केसस् वेर् बोत् आफ् देम् कुड् अप्लै, वी हेव् टु अप्लै शर्परे विसर्जनीयः. एण्ड् देर् इस् ओन्लि अ विसर्ग हर्ड् हियर् एस् वासः क्षौमम् एण्ड् नाट् जिह्वामूलीया. वासः क्षौमम् इति सन्ध्यौ कृते अपि वासः क्षौमम् इत्येव रूपम्. दट् इस् वै वेर् एवर् देर् इस् ए क्ष later we do not, we have to pronounce the visarga separately. Say Vishnu Sahasranama kshamah kshamas samiranah. It is wrong to say kshamah kshamah. There is no jihvamuliya. Wherever there is a kshakara, k and shu following, it should always be a visarga preceding it. Right? Was this clear? Any doubts? शर्परे विसर्जनीयः इत्यनेन विसर्जनीयस्य स्थाने विसर्जनीय एव भवति इत्युच्यते. इफ् द क्वश्चन् आस्मि मुकुसुब्रह्मण्यं जी इस् वन् वन्स् यु डू रिप्लेस् द विसर्ग वित् विसर्ग, वै काण्ट् वि अप्लै कुप्पोः कह्पोच नौ. क्वश्चन् इस् इफ् वि कुड् अप्लै कुप्पोः कह्पोच, देर् इस् नो पायिण्ट् इन् अप्लैङ्ग् शर्परे विसर्जनीयः. वि कुड् हव् डैरेक्ट्लि अप्लै कन्वर्टेड् द विसर्ग टु जिह्वामूलीय. वाट् वुड् बि पायिण्ट् to say a visarga replaces visarga, which means that nothing else will happen. Whenever we say a visarga, this is similar to what we saw in Moraji Samahko, where we say we replace a makara with makara, means it is not converted to anything else. Here also, replacing a visarga with visarga means that nothing else can convert the visarga to something else. Therefore, after we do this, we cannot apply kuppoh kahpoucha. संहितायाम् इति अग्रिमं सूत्रं. वस्तुतः सन्धिः अत्सन्धिः इकोयणसि इत्यत्रापि अयमेव अधिकारः आसीत्. अधिकारसूत्रं संहितायाम् इति षष्ठाध्यायस्य प्रथमपादस्य द्विसप्ततितमं सूत्रं भवति संहितायाम् इति. अयमधिकारः सम्पूर्ण अत्सन्धिषु सर्वत्र संहितायाम् इत्यधिकारः अस्ति. अस्य पादस्य अन्ते 158 षष्ठाध्यायस्य प्रथमपादस्य अष्टपञ्चाशदुत्तर एकशततमं सूत्रं प्रति दिस् अधिकार गोस् टिल् द सूत्र नम्बर्ड् 61158 संहितायाम् इतः परं ये यानि कार्याणि उच्यन्ते ते संहितायां सत्यामेव भवन्ति इति सूत्रार्थः इति अधिकृत्य. छे च इत्यस्ति पदद्वयं. छे च ह्रस्वस्य पिति कृते तुक् सूत्रं हस् बिन् कट् द एक्चुअल् सूत्र इस् ह्रस्वस्य पिति कृते तुक् इति सूत्रात् ह्रस्वस्य इति अनुवर्तते, तुक् इत्यपि अनुवर्तते. ह्रस्वस्य इति षष्ठी विभक्तिः, अर्थात् ह्रस्वस्वरस्य स्थाने छे इति सप्तमी. छकारे सोरि दिस् इस् नाट् सकार, दिस् इस् छकारे परे. ह्रस्वस्य स्थाने छकारे परे तुक् इति प्रथमा विभक्तिः. तुक् इति आगमः भवति, तुगागमो भवति संहितायां सत्याम्. ह्रस्वस्य छेपरे तुगागमः स्यात् संहितायाम् इति सूत्रार्थः. स्वच्छाया इत्यस्ति स्वस्य छाया इति विग्रहः, समासः स्वच्छाया इत्यस्ति. ह्रस्वः अकारः ह्रस्वस्वरः, तस्य छकारे परे तुगागमः भवति. तुगागमश्च आद्यन्तौ टकितौ इत्यनेन कित् आगमः तस्मात् अन्ते भवति. स्वच्छाया स्थिते तुगागमे स्वत् छाया, छे च इत्यनेन तुगागमः. इदानीं झलां जशोन्ते इत्यनेन तकारस्य दकारः स्वद् छाया. स्तोहुश्चुनाश्चुः इत्यनेन तस्य श्चुत्वे स्वज् छाया. ततः खरि च इत्यनेन चत्वे स्वच् छाया, स्वच्छाया इति रूपम्. सो द आर्डर् इस् इम्पार्टेण्ट्. जस्त्वं श्चुत्वं ततः चत्वं स्वच्छाया. एवमेव अत्र दीक्षितैः उच्यते श्चुत्वस्य असिद्धत्वात् जस्त्वेन दः. श्चुत्वम् अत्र श्चुत्वं प्राप्नोति. स्तोः श्चुनाश्चुः इत्यस्य प्राप्तिः अत्रापि अस्ति. स्वत् छाया इति स्थिते एव श्चुत्वस्य प्राप्तिः अस्ति, किन्तु तस्य असिद्धत्वात् जस्त्वेन दः. तकारस्य स्थाने जस्त्वे दकारः. ततः चर्त्वस्य असिद्धत्वात् नौ आल्सो देर् इस् एन् आप्शन् फार् अप्लैङ्ग् खरि च, खरिपरे झलां चरः स्युः, किन्तु चर्त्वस्य असिद्धत्वात् श्चुत्वेन जः, तस्य चर्त्वेन चः. जस्ट् एक्स्प्लेन्स् दीस् त्री स्टेप्स् क्लियर्लि. फस्ट् वि डू जस्त्व, देन् वि डू श्चुत्व, देन् वि कन् डू चर्त्व. देर् इस् अ क्वश्चन् हियर् वेन् वि हेव् डन् दिस् स्वज् छाया इति कृते श्चुत्वे कृते चोः कुः इत्यनेन कुत्वं प्राप्नोति. चोः कुः इस् अ सूत्र विच् टेल्स् पदान्तस्य चवर्गस्य कवर्गादेशो भवति झलिपदान्ते च. सो इफ् देर् इस् अ चकार चवर्ग एट् द एण्ड् आफ् अ पद, इट् केन् बि कन्वर्टेड् टु कवर्ग. वि सी दिस् इन् केस् आफ् चकारान्त पदास् लैक् से जलमुच् शब्द द प्रथमाविभक्ति फार्म् इस् जलमुक् जलमुचौ जलमुचः. वि हेव् kutva, we call it kutva, where the, if there is a chavarga at the end of a pada, it can be converted to kutva. So can we apply that here is the question. Asiddhatvat na bhavati. Choh kuhu is 8 to 30. It actually is even before jhalam jashyante. So according to choh kuhu, it remains as svat chaya. It does not know the conversion to jakara, therefore it cannot apply. Shchutvasya asiddhatvat चोः कुः इति कुत्वं न भवति. एवमेव शिवच्छाया इत्यस्ति चेत् छेच इत्यनेन तुगागमे शिवच्छाया. अग्रिमं सूत्रं तुगागमविधायकम् आङ् माङ्मोश्च. संहितायाम् इत्यधिक्रियते. ह्रस्वस्य पिति कृते तुक् इत्यतः तुक् इति अनुवर्तते. छे च इत्यतः छे छकारे परे इत्यपि अनुवर्तते. आङ् माङ्ोः इति षष्ठी विभक्तिः. आङ् इति उपसर्गस्य, माङ् इति अव्ययस्य च, छे छकारे परे, तुक् तुगागमो भवति. संहितायां सत्यम् एतयोः आङ् इत्युपसर्गस्य, माङ् इति अव्ययस्य च, छकारे परे तुगागमो भवति इति सूत्रार्थः. द क्वेश्चन् हियर् इस् आङ् माङ्ोश्च, दट् इस् द सूत्र, द नेक्स्ट् सूत्र इन् द तुक् प्रकरण इस् दीर्घात्. इफ् अ दीर्घ इस् फालोड् बै छकार, देर् इस् तुगागम. देन् पदान्ताद् वा, इफ् ओके दीर्घ, इफ् अ दीर्घ इस् फालोड् बै छकार, देर् इस् तुगागम. सिन्स् हियर् आ एण्ड् मा बोत् आफ् देम् आर् दीर्घास्, वै डु वि नीड् द सूत्र? इस् अ क्वश्चन्. आकारोऽपि दीर्घः, माङ् इत्यत्रापि आकारः अस्ति, सोऽपि दीर्घः, दीर्घात् इत्यनेनैव तुगागमः सिद्ध्यति, किमर्थम् आङ् माङ् ओश्च इति सूत्रम्. द नेक्स्ट् सूत्र विच् इस् दीर्घात् टेल्स् तुगागम वेन् देर् इस् अ दीर्घ विच् इस् फालोड् बै छकार. सो वेन् वि केन् अप्लै दीर्घ हियर् आल्सो, वै डु वि नीड् अ सपरेट् सूत्र? द सूत्र आफ्टर् दीर्घात् इस् पदान्ताद्वा. If there is a dirgha at the end of a pada, the tukkagama is vikalpa. It is made optional by padantadva. Both of these are padas. Aang iti upasargaha. Yathoktam upasarganam api padatvam asti, tasmat aang iti padam. Ma iti avyayam tasya api padatvam asti. So since both of them are padas by themselves, if padantadva applied, there would be an optional tukkagama instead of a compulsory tukkagama. But in these cases, in these two cases, Panini wants a compulsory tugagama. That is why he makes a separate sutra as Aang Maang Oshcha. Padantadva iti vikalpasya apavadaha. A chhadayati. Yasti. Aang iti upasargaha chadadhatuhu nijantaha chhadayati. Tugagame jashtve shchutve chartve a chhadayati. Similarly, you have ma chhidat. छिदधातोः लुङ्लकारः अडागमनिषेधः. मा छिदत् इति स्थिते मा छिदत्. सो वेनेवर् इदर् आ द आङ् उपसर्ग आर् मा इस् फालोड् बै छकार, देर् इस् अ कम्पल्सरि तुगागम. नित्यमेव तुगागमः भवति. आच्छादयति मा छिदत्. अग्रिमं सूत्रं दीर्घात् संहितायाम् इत्यधिकारः. ह्रस्वस्य पिति कृते तुक् इत्यतः तुक् इति अनुवर्तते. छे च इत्यतः छे इति अनुवर्तते. दीर्घात् छे परे तुगागमो भवति. सो वेन् अ दीर्घ इस् फालोड् बै छकार, देर् इस् तुगागम. नौ द क्वश्चन् वुड् बि टु वाट् इस् दिस् तुगागम? इस् द तुगागम फार् द दीर्घ आर् फार् द छकार? बिकास् पाणिनि हस् चूसन् अ वियर्ड् वे टु पुट् इट्. There is no shashti here. Dirghat che. Dirghat iti panchami, che iti saptami. Inani kasya tugagamaha bhavet iti prashmaha. Purvam api drishtam, yatra panchami saptami iti ubhayam asti, tada ubhaya nirdeshe panchami nirdesho baliya nityanena panchamyaha balavatvat panchamyaha parasya iti arthaha labhyate, saptami shashtyantatvena viparinam yate. We saw that we would in cases where we had this, say dasi dhut or nascha, we retained the meaning of panchami and we converted the saptami into the meaning of shashti, and we declared that whatever is the saptami vibhakti should get the tugagama, right? So that is how we have been doing, and that is how it is usually done. If there is panchami and saptami, we consider the saptami word to have a meaning of shashti. Tata saptamyam yaha yat padam nirdishtam tasya sthane agamaha va adesho va bhavati ityartha samanyataha kriyate, kintu atra tatha nasti. But here we do not say that dirghant parasya chakarasya tugagamaha. The tugagama is not for the chakara, but it is for the dirgha itself. Panini should have, the actual nirdesha should have been dirghasya. Dirghasya chakare pare tugagamaha bhavati. Dikshitaihi atha uchyate, dirghasyayam tuk natu chasya. Dirghasyaiva tugagamaha natu chakarasya. कथं ज्ञायते हौ केन् यु से दट् क्वश्चन् हौ डु वि से दट् द तुगागम इस् फार् द दीर्घ नाट् फार् द छकार तदानीं प्रमाणं प्रदर्श्यते दीक्षितैः विभाषा सेनासुराच्छायाशालानिशानाम् इति ज्ञापकात् दिस् इस् द सूत्र दिस् इस् द पाणिनी सूत्र इन् दिस् सूत्र बै हिस् प्रयोग वि केन् नो दट् द तुगागम इस् फार् द दीर्घ एण्ड् नाट् फार् द छकार सो हौ डु वि नो दट् इति क्वश्चन् तत्र सूत्रे सेनासुराच्छाय इत्यस्ति सुराच्छाय इति पदं प्रयुक्तं पाणिनिना सुराच्छाय इत्यनयो समासः सुराच्छाय इत्यस्ति यदि छकारस्य तुगागमः इत्यर्थः क्रियते इफ् वि इण्टर्प्रिट् एस् द तुगागम इस् फार् द छकार वाट् वुड् हेपन् सुरा छ त् आया छकारात् परत्वेन तुगागमः स्यात् यदा दीर्घाद् आर् पदान्ताद्वा पदान्त वि गेट् तुगागम कित्वात् आद्यन्तौ टकितौ इत्युक्तत्वात् छकारस्य छकारात् परत्वेन तुगागमः स्यात् सुरा छ त् आया इत्यस्ति अस्य तकारस्य स्तोहुश्चुनाश्चुः इत्यनेन श्चुत्वं भवति छ च आया पूर्वस्य छकारस्य खरिच इत्यनेन चर्त्वे कृते सुराच्छाया इति स्यात् छकारस्य श्रवणं न स्यात् इन् सुराच्छाया वि वुड् नाट् हियर् अ छकार इफ् द तुगागम इस् फार् द छकार वि विल् हियर् द छकार ओन्ली इफ् द तुगागम कम् बिफोर् छकार दट् इस् फार् द दीर्घ एण्ड् नाट् फार् द छकार सो यूसिङ्ग् पाणिनीस् प्रयोग एस् अ गैड् वि से दीर्घस्यायं तुक् न तु छस्य चकारस्य तुगागमः नास्ति दीर्घस्यैव तुगागमः दीर्घस्य तुगागमे किं भवति सुरात् छाया इत्यस्ति तस्य जस्त्वे सुराद् छाया पुनः श्चुत्वे सुराज् छाया ततः चर्त्वे सुराच्छाया इति इष्टं रूपं सिद्ध्यति सो दिस् इस् द रूप विच् वि वाण्ट् दट् इस् वै तुगागमः दीर्घस्यैव इति निश्चितम् उदाहरणं चे छिद्यते छिदुधातोः यङन्ते यङ् इस् अ प्रत्यय विच् कम्स् इन् सनात्यन्तस् सो इन् दट् वि डू द्वित्वा एण्ड् दर् इस् अन् एकार एण्ड् आल् दट् फैनलि वि एण्ड् अप् वित् चे छिद्यते इदानीं दीर्घात् इत्यनेन तुगागमे चे छिद्यते इति रूपम् did not understand your question one second please sada gopan ji
yeah you are trying to a case where tugagamam was an agamam
correct
there also is agamam only not an adesha but
where
you were mentioning about and comparing it with this case no? Sum tamat
I compared it with dasi dhut which was also an agama there was a panchami and there was a saptami and there is an agama we do not know for which is the agama is it for the
both are similar okay.
Yeah thank similar you. दीर्घस्य एनी अदर डाउट यस इट्स नॉट उभय निर्देशे पंचमी निर्देशो बलिया सार्वत्रिकी परिभाषा नास्ति सो देयर आर मेनी परिभाषास व्हिच आर अनित्य सो इट इज वन ऑफ दोस डिपेंडिंग ऑन द प्रयोग समटाइम्स इट इज नॉट फॉलोड There could be, are there other cases we deal with sutras on a sutra by sutra basis? So, generally the paribhasha is followed. There might be other exceptions also. Agrimam sutram bhavati padantad va. संहितायाम् अधिकारः तुक् इति अनुवर्तते, छे इति अनुवर्तते, दीर्घात् इत्यपि अनुवर्तते. दीर्घात् पदान्तात् अर्थे पदान्ते दीर्घस्वरः अस्ति चेत् पदान्तस्य दीर्घस्य विकल्पेन वा तुगागमः भवति. दीर्घात् पदान्तात् छे परे तुक् वा स्यात्. लक्ष्मी छाया इत्यस्ति, लक्ष्म्याः छाया इति समासः, तत्र विकल्पेन तुगागमः, तुगागमे कृते लक्ष्मीच्छाया, तदभावे लक्ष्मीछाया. So there we straight four things. If it is a hrasva swara, the tugagama is always compulsory, whether at the end of a pada or in the middle of a pada. If it is dirgha, if it is in the middle of a pada, it is compulsory, as in chet chidyate. If it is in the at the end of a pada, then it is optional, as in lakshmi chaya or lakshmi chaya. If it is ang or mang, then also it is a compulsory tugagama. आच्छादयति एंड माच्छिदतु. दट इज द एंड ऑफ हलसंधि प्रकरण इन द कौमुदी. एतावन्तः हलसंधयः. सो वी विल डू अ रीकैप लेटर. एनी क्वेश्चंस हियर? Clear about the question. What is it? In this particular tugagama applies only when there is chakara, as in the tugagama by checha or padantadva or anything else will apply only if there is chakara. But there are other sutras which are for tugagama. So we already studied one which said shituk shakare pare tugagamaha iti sutram adhitam. Yeah, I told you, this is not, even here, the tugagama is starting from prasvasya pitikriti tuk. For example, when you have kr and ya, it becomes kritya. All there are other cases where there is tugagama, and not just when it is followed by chakara. The sutra from which the anuvritti is, which is prasvasya pitikriti tuk, it occurs in a lot of places. Ekritya, Bhritya, all those are derived from the Tugagama. You have the Kru Dhatu and Aya Pratyaya. Rasvasya Pitipare Tuk Kritya. Okay, so there is one more question by Priya. In the Sutra Kupoho, can the same result be got by using Va in place of Cha? Kupoho Kapocha Ityatra Chat Visargaha Ityuktam Chakarata Visargaha. Can this same result be got by using va? Can we make this ikhamuliya or upadmaniya an optional thing and still get it? No. That is why we say chad visarga. Because if it were an optional, that is if kuppohu parayohu kahpohu va bhavataha, then in the absence of ikhamuliya or upadmaniya, the visarjaniyasya saha would have to apply. So if visarjaniyasya saha would apply, we get a sakara desha, which we do not want. That is why we need this sutra to mandate both jihvamuliya upadhaniya as also visarga. It is, if there is no jihvamuliya or upadhaniya, the visarga remains as a visarga. It is not converted to sakara. That is why he says chat visargaha anenaiva sutrena punaha visargaha vidhatavyaha no chet rupam na siddhyate. Any other questions? So this is the end of the fifth prakarana of Siddhanta Kaumudi. We finished. Why do we have Samhitayam here? Why is it not used in other sandhis? It is used in all sandhis. All sandhis come under the Adhikara Samhitayam.
Ichitar could have told this sutra before Yan Sandhi only, because Yan Sandhi is also in the adhikar of Samhitaya. Samhitayam satyameva sandhihi. Iti nirnaya.
Okay, so Atsan, Samya prakaranam, paribhasha prakaranam, Atsandhayaha, prakriti bhavaha, hal sandhihi. Five prakaranas. I think we'll take a break here. Which one? Che took what exactly is the question? Mohana. Hello?
Maybe Chencha.
You want me to repeat, Chencha?
Yeah, because I think I missed some of what you said.
Okay, sure. छे च इत्यतः तुगागमः आरभ्यते किमपि नास्ति छे अर्थात् छकारे परे तुगागमो भवति इत्यर्थः ह्रस्वस्य पितित् कृति तुक् इत्यतः तुक् इति अनुवर्तते ह्रस्वस्य इति च अनुवर्तते छे छकारे परे ह्रस्वस्य तुगागमः भवति संहितायां सत्याम् इत्यर्थः ह्रस्वस्य छे परे तुगागमः स्यात् संहितायां Sva Chaya Itasti. It's a samasa where you have Sva and Chaya. There is a Hrasva Swara at the end, which is Akara, followed by Chakara. Che pare Hrasvasya Tugagamaha. Ityanena Tugagamaha Bhavati. Adyanta Utakito Ityanena Shashti Nirdashtasya Antye Tugagamaha. Artha Takaragamaha. Svat Chaya. Tugagame Krute. Jhalam Jashonte Ityanena Jashtve Takarasya Dakaraha. Svad Chaya. पुनः स्तोहुश्चुनाश्चुः इत्यनेन श्चुत्वे स्वज् दकारस्य श्चुत्वे जकारः स्वज् छाया खरिच इत्यनेन चर्त्वे स्वच् छाया रूपं तु स्वच्छाया इति तदेव दीक्षितैः उक्तम् सो द क्वेश्चन् इस् वै केन् नाट् वी डू खरिच स्तोहुश्चुनाश्चुः डैरेक्ट्लि हियर् तवर्गस्य चवर्गे परे श्चुत्वम् इत्यनेन तकारस्य श्चुत्वे चकारे Directly we get the form Svachu Chaya. If we directly convert the Takara by Shchutva. Why do we not do it? It's because all these are in the Tripadi. And in the Tripadi, Purvatra Asiddham. Jashtvam Prati Shchutvam Asiddham. Tasmad Adau Jashtvam Kriyate. Shchutvasya Asiddhatvata Jashtvena Daha. Tataha, when we have Svadu Chaya, we can either apply Stoshtunashtuhu or Kharicha. Tataha Chattvasya Asiddhatvata Punaha Shchutvena Chaha. So we have to apply Tohushchanashtuhu because Kharicha is Asiddha for that. Finally we do Kharicha, Tasya Chattvena Chaha. Svachhaya, Evam, Ha. Svachhaya, Atra Svaju Chaya iti Skritte, Chohpuhu ityanena Kutvam Bhavatu iti Ashanka. There's a question arise, why do we not do a Kutva by Chohpuhu? Chohpuhu tells if there is a Chavarga at the end of a Pada, it can be converted to Kavarga. So this should be actually converted to Gakara, Svag Chaya. Why is this not happening? Because again Asiddha. Stoshchunashtuhu is Asiddha for Chokkuhu. Chokkuhu iti sutram, Ashtamadhyayasya Dvitiya Pade Trimshattamam sutram. Stoshchunashtuhu iti tu Chaturtha Pade Chatvarimshattamam sutram. Shutvasya Asiddhatvat Chokkuhu iti kutvam na bhavati. There is no kutva. Right? Do you want me to explain the other sutras of Tugagama? Shivachaya Ityapi Udaharanam. Or was it only Chhecha? Conditions where an agama is added. An agama, to decide the position of an agama, we have two sutras. There are three kinds of agamas. One is tit, one is kit, and the other is mit. That is, if the agama has takara as in dhut or nut, then adau bhavati. Whatever is in shashti, always the reference point is shashti. It should be before the shashti word, I mean the word which is indicated by Shashti, should it be after that or somewhere else is the question. So we say Shashti Nirdishtasya Adau Bhavati Tit Agamaha. Yadi Agamaha Kit Arthat Kakaraha Itsamyakaha Tarhi Shashti Nirdishtasya Ante Bhavati Paratvena Bhavati. Yadi Mit Agamaha Tarhi Antyad Achah Paratvena Bhavati. So there are the three general conditions for any agama. If it is tit, it has to be at the beginning. If it is kit, it has to be at the end. And if it is mit, it should be after the last ach of the shashti. Now here the question is dirghat and che. There is no shashti. First thing is to get a shashti. Because dirghat iti panchami vibhakti hi, che iti saptami vibhakti hi, shashti vibhakti hi nasti. If there is no Shashti, we cannot decide for which is the Agama. We cannot decide what is the place. Where should the Agama be? Right? Now, the general way of deciding is, if there is a Panchami and Saptami, the Saptami is converted to Shashti. The Panchami remains as it is. Because of a Paribhasha which says, Bhaya Nirdesha Panchami Nirdesha Baliyan. The Panchami Nirdesha is as it is, which means when the Panchami word is followed by, the Saptami is converted to Shashti. Means for the word which is in Saptami, we add either to the beginning or to the end. If we apply the case here, Dirghat iti Panchami, Che iti Saptami. Ubhaya Nirdeshe Panchami Nirdesho Valiyan iti Paribhasha yadi Ashriyeta, Tada Dirghat Parasya Chakarasya Tugagamaha Ityarthaha Syat. The meaning which would be derived is, the agama is for the chakara. If the agama is for the chakara, this is a kit agama. Tuk is kit. Mahalantyam ityanena kakarasya itsamyayam kit agama. Kit ityukte ante bhavati. Chakarasya ante. That means it should be added after the chakara. That is ch t aya. Tatha bhavati chet asya takarasya shtutvena chakare purva chakarasya chatvena chakare surat chaya. It is syat. The form would be Surachaya. On the other hand, if we say Dirghasya Chakare Pare Dirghasya Tugagamaha, Tada Dirghasya Ante Bhavati. Idanimapi Anteva Kittagamaha Ante Kintu Dirghasya Ante. It is being added to the end of the Dirgha. That is Surat Chaya. Idanim Jashtve Shchutve Chartve Surachaya. Iti Chakarasya Shramanam Asti. So this is how, using the prayoga, we decide that the agama is for the dirgha and not for the chakara. Okay, any other questions? Yes, I mean, yeah, generally it is not. Generally the rule is fixed, but sometimes, yeah, I mean, the rules for adding the agama are fixed. That is, tit is always added to the beginning, kit is always added to the end, and mit is always added to the end of the last ach. But which is to the beginning of which is a question. It is the position of the agama is fixed. It has to be at the end. But to the end of what? There is the confusion. Whatever is the Shashti, if there is a Shashti, there is no confusion again. Whatever is in Shashti, it should be to the end of that or to the beginning of that. But since there is no Shashti, there are a few cases, actually rare cases where there is no Shashti, then we have to go based on the prayoga. Stop here. There will be a mini break for the classes. I will be going out of station and I will be back the next week. So the next class is on 1st November. It is a Monday. I think 3rd November, which is a Wednesday. So, November masasya tritiya dinanke, there is almost a 15-day break. So, maybe you can catch up with what you have all missed. even after I come back, I think I'll take a couple of classes for a bit of a recap of what we have done so far and see where we are, and then we'll be starting with Visarga Sandhi. Okay. In the meantime, if you have questions, you can always mail me. I might not answer your questions for a week from this Thursday to the next, but otherwise I'll generally answer mails, available on mails. So any other questions for now? Thank you. Right? So, Henakshara Samam Nayamadhikam Maheshwara Krishnam Vyakaranam Proktam Tasmai Paninaye Namaha Vakyakaram Vara Ruchim Bhashyakaram Patanjalim Paninim Sutrakaram Cha Pranatosmi Munitrayam Namaskritya Tadukti Paribhavya Cha Vyakarana Siddhanta Kaumudiyam Virachyate.